अथ दिव्यः कवचो ओम। अस्य श्रीचण्डी कवचस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः चामुण्डा देवता अङ्गन्यासोक्तमातरो बीजम् दिग्बन्धदेवता तत्त्वम् श्रीजगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै मार्कण्डेय उवाच चिदाख्यातं तन्मे ब्रूहि पितामह। ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकं देव्यास्तु कवचं पुण्यं श्रीविश्वमहामुनि प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् पञ्चमम् सिद्धिदात्री च नवदुर्गा प्रकीर्तिताः उक्तानीतानि नामानि ब्रह्मणैव महात्मना। अग्निना दह्यमानस्तु शत्रुमध्येकतोरणि दिशमे दुर्गमे चैव भयार्ता शरणं गता।
तु मामेन्द्री Bye.
भार्यां रक्षतु भैरवी सन्थानं सुभथा रक्षीन् मार्गं क्षेमकरी तथा राज्यत्वारे महालक्ष्मी विजया सर्वतः स्थिता रक्षाहीनं सुयस्थानं वर्जितं कवचेन तु तत्सर्वं रक्ष मे देवी जयन्ती पापनाशिनी तत्र तस्यार्थ लाभश्च विजयः सार्वकामिकः यम् यम् चिन्तयति कामम् तम् तम् प्राप्नोति निश्चितम् परमैश्वर्यमतुलम् प्राप्यति भूतले पुमा निर्भयो जायते मध्यः सङ्ग्रामेषु पराजितः त्रैलोके तु भवेत् पूज्यः कवचीनावृतः कुमार इदं तु दिव्या कवचम् देवानामपि दुर्लभम् यः पतिः प्रयतो नित्यम् विसन्ध्यम् श्रद्धयान्वितः दैवी कला भवितस्य त्रैलोकेष्वपराजितः जीवे वर्षशतम् तारमपमृत्यु विवर्जितः नश्यन्ति व्याधयः सर्वे लूता विस्फोटपादयः स्थावरम् जङ्गमम् चैव पितृमम् चापि यत्विषम् अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भूचराक्षेचराश्चैव जलजाश्चोपदेशिका सहजा कुलजामाला जाकिनी शाकिनी तथा अन्तरिक्षचरा घोरा शाकिन्यश्च महाबला ग्रहभूत पिशाचाश्च यक्ष गन्धर्व राक्षसा ब्रह्म राक्षस वेताला कूष्माण्डा भैरवादयः नश्यन्ति दर्शनात्तस्य तेजो वृद्धि करम् परम् दशसा वर्धते सोऽपि कीर्तिमण्डित भूतले जपे सप्तशती चण्डी कृत्वा तु कवचम् पुरा यावत् भूमण्डलम् दत्ते सशेलवदकाननम् तावत् तिष्ठति मे दिन्याम् सन्तति पुत्र पौत्रिकी पुरुषो नित्यम् महामाया प्रसादतः लभते परमम् रूपम् शिवेन सह मोदते श्रीदेव्याः कवचम्।